पाशाकुशपुष्पाणचाप अणिमादिभिरावृता मयूख रहमित्येव विभावये भवानी। चिंतामणिद्वीपनिलये प्रातः संध्या प्रवर्तते उत्तिष्ठोत्तिष्ठ कल्याणी हे दुर्गे लोकरक्षणम्। उत्तिष्ठोत्तिष्ठ सर्वाणि उत्तिष्ठ जगदीश्वरी उत्तिष्ठ परमानन्दे त्रैलोक्यं मंगलं कुरु। समस्त जगतां ममतानुरागे शूली मनः प्रियकरे करुणा समुद्रे चिंतामणि द्वीप हिरण्यगर्भे मल्लेश्वरस्य दयिते तव सुप्रभा भवाब्दि तरुणोपाये शंखचक्रवरानने श्री दुर्गा भवानी परिपालय मां च भक्तं। इंद्रादिदेव निकरस्य किरीटकोटि प्रत्युक्तरत्न प्रतिबिंबित पादपद्मे मल्लेश्वरस्य दैते तव सुप्रभातम्। रूपमिति विश्वरूपम् ततो अतिरूपपूर्णस्य चक्रिणो वदनात्ततः निश्चक्राम महत्तेजो ब्रह्मणः शंकरस्य च अन्येषां देवदेवानां चक्रादीनां शरीरतः निर्गतं सुमहत्तेजः तच्चैक्यं समगच्छत। अतुलं तत्र तत्तेजः सर्वदेव शरीरजं एकस्थं तदभूनारी व्याप्तलोकत्रयं त्विषा यदभूत् शाम्भवं तेजः तेजसा। सौम्येन स्थनयोः युग्मं मध्यं चेन्द्रेण चाभवत् वारुणेन च जङ्घोरु नितम्बस्तेजसां भुवः ब्रह्मणस्तेजसा पादौ तदङ्गुल्योर्कतेजसा वसूनां च कराङ्गुल्यः कौभेरेण च नासिका दन्ताः सम्भूताः प्राजापत्येन तेजसा नयनत्रितयं जज्ञे तथा पावक तेजसा च सन्ध्ययोस्तेजः श्रवणावनिलस्य च अन्येषां देवदेवानां सम्भवस्तेजसां शिवाम् समस्तदेवानां तेजो राशि समुद्भवां तां विलोक्यमुदं प्रापुः अमरा महिषार्धिताः स्वचक्रतः शङ्खं वरुणशक्तिं ददौ तस्यै हुतासनः मारुतो दत्तवान् चापं बाणपूर्णे ददेशुधि वज्रमिन्द्रः समुत्पाट्य कुलिसादमराधिपः ददौ तस्यै सहस्राक्षो घंटा मैरावताद्गजात् कालदण्डाद्यमोदण्डम् पाशञ्चाबुपतिर्ददौ प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुं समस्तरोमकूपेषु निजरश्मीन्दिवाकरः का च निर्मलम् क्षीरोदश्चामलं हारम् अचरे च तदाम्बरे चूडामणिं तदा दिव्यं कुण्डले कटकानि च अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु ग्रैवेयक मनुत्तमम् विश्वकर्मा ददौ तस्यै परशुं चाति निर्मलम् अस्त्राण्यनेक रूपाणि तदा भेज्यं च दंशनम् नागहारं ददौ तस्यै दत्तेयः पृथिवीमिमा सम्मानितासनादोच्चैः साट्टहासं मुहुर्मुहुः तस्यानादेन घोरेण कृत्स्ना मा पूरितं नभः तव केशपाश अष्टमी चन्द्रप्रकाशदलितस्थलशोभिते चन्द्रसूर्याग्निलोचन मुखकान्तिदीप्ते श्रीदुर्गे शरणं तव सुप्रभातम् कदम्बवनवासप्रियकरुणान्तरङ्गे कृष्णवेणी मध्यस्थ विजयपुरी निवासे मध्ये सुदापि मणिमण्टपरत्नगर्भे देवी भजामि चरणम् तव सुप्रभातम्। लोलाक्षीं मदमत्तहंसगमनां त्वामर्चयामि ललिते तव पादपद्मम् मां पालय प्रतिदिनं गिरिराजकन्ये देवी स्मरामि कमले तव सुप्रभातम् कामेश्वरि जगन्मातः सच्चिदानन्द विग्रहे गृहाणार्चामि मां प्रीत्या प्रसीद परमेश्वरी सगर्वा संहारकरी वंदे जगत्रक्षिणी हे राज्ञे गिरिजे त्रिमूर्त्यात्मिके विभवे नारायणी शांकरी जयवाटिकापुर हारहीर शुभगाम देवीं नायकीं दुर्गां उमां भवानीं करिकुंभसन्निभकुचां वंदे कामेश्वर स्वरूपे सर्वेषि सर्वशक्ति समन्विते भयेभ्यस्त्राहिनो देवी दुर्गे परिष्कृतं राजकोण्डवंशेन कृतं शुभं पार्वती कामेश्वर प्रियं तत् सज्जन प्रियमिदं तथा भुवि भवानी प्रिय सुप्रभातम् ये मानवाः प्रतिदिनं पठिता प्रवृत्ताः तेषां प्रभातसमये स्मृतिरा परमां प्रसूते। सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके शरण्ये